इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे आदौ मुख्यवार्ताः राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः उक्तवान् यत् भारतं स्वदेशीय प्रौद्योगिक्याः उपयोगेन ऑपरेशन सिंदूर इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत् सः छात्रान् आहूतवान् यत् ते कृत्रिमबुद्ध्या क्वांटम तंत्रज्ञानेन च 47-2000-तमवर्षपर्यन्तं विकसितराष्ट्रं निर्माणं कुर्युः सर्वकारेण देशस्य स्वच्छ स्थायी वस्तुवाहन गतिशीलतायाः परिवर्तनस्य सहायतार्थं विद्युत्वाहनानां प्रोत्साहनार्थं योजना समारब्धा अन्ताराष्ट्रिय मुद्राकोषेण UPI इति मुद्राविनिमय प्रणाल्याः प्रशंसा कृता उक्तञ्च अनया प्रणाल्या एव भारतं द्रुततर मुद्राविनिमये विश्वनायकः अभवत् टेस्ट क्रिकेट क्रीडायां इंग्लैंड दलेन 7 क्रीडकानां हानौ 53-300 धावनांकाः समार्जिताः अथ वार्ताः विस्तरेण राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः उक्तवान् यत् भारतं स्वदेशीय प्रौद्योगिक्याः उपयोगेन ऑपरेशन सिंदूर इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत् तस्मात् 28 निमेषेषु एव पाकिस्तान पारं 9-10 लक्षाणां प्रहारोऽपि साधितः अद्य IIT मद्रास इत्यस्य 62वें दीक्षांत समारोहे स्वभाषणे सः अवदत् यत् ऑपरेशन सिंदूरस्य समये भारतीय सैन्यस्य पार्श्वे युद्धक्षेत्रे ब्रह्मोस एकीकृत वायुनिर्देशन प्रणाली रडार इत्याद्यः अत्याधुनिक देशीय प्रौद्योगिक्यः आसन्
This is the spirit that I want each one of you to go. Will you have that passion for your nation? Is it something that you realize it is too late? Or you realize in 2025 that you have to take the country in 2047? Make it a proud country, a major power in military terms, in economic terms, in science and technology, in everything and every area of the human activity. If you can manage your time, you can manage your energy, and we can manage your mind and spirit, you can achieve it.
श्री डोभालः अवदत् यत् एषः सहस्रवर्षेषु एकः सुसमयः वर्तते यद्धि देशस्य युवानः एतत् त्यक्तुं न शक्नुवन्ति सः छात्रान् युवाञ्च आह्वानं कृतवान् यत् ते दुर्लभ पृथिवी खनिजाः कृत्रिमबुद्धिः क्वांटम कम्प्यूटिंग च इत्यादीनां संसाधनानाम् उपयोगेन प्रौद्योगिकीनाम् आविष्कारं कृत्वा 47-2000-तमवर्षपर्यन्तं देशं विकसितराष्ट्रं प्रति उन्नयेयुः सः प्रतिपादितवान् यत् शिक्षा कौशल प्रौद्योगिक्या युक्तं विशालयुवजनसङ्ख्याकं भारतं अग्रिमेषु वर्षेषु देशस्य सर्वाङ्गिकवृद्धौ योगदानं कर्तुं शक्नोति बृहदुद्यममन्त्री HD कुमारस्वामी अद्य PM E-Drive योजनायाः अन्तर्गतं E-Truck इति विद्युच्चालित ट्रक यानानां प्रोत्साहनार्थं योजनां प्रारब्धवान् सर्वकारेण देशस्य स्वच्छस्थायी वस्तुवाहन गतिशीलतायाः परिवर्तने सहायतार्थं विद्युत्वाहनानां समर्थनं प्रथमवारं आरब्धं वर्तते अस्मिन् अवसरे वदन् श्री HD कुमारस्वामी प्रोक्तवान् यत् दिल्लीनगरे पञ्जीकृतानां प्रायः 100,000 ई ट्रक यानानां कृते प्रोत्साहनं दातुं समर्पितं प्रावधानं कृतम् अस्ति यत्र 100 कोटिरूप्यकाणां व्ययः भवेत् IMF इति अन्ताराष्ट्रिय मुद्राकोषेण यूनिफाइड पेमेंट्स इंटरफेस सिस्टम UPI इत्यस्य मुद्राविनिमय प्रणाल्याः प्रशंसा कृता उक्तञ्च अनया प्रणाल्या एव भारतं द्रुततर मुद्राविनिमये विश्वनायकः अभवत् ग्रोइंग रिटेल डिजिटल पेमेंट्स इति शीर्षकोपेते अस्मिन् लेखे उक्तं यत् UPI इत्यनेन भारते डिजिटल मुद्राविनिमय परिदृश्यं परिवर्तितं वर्तते संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। प्रधानमंत्री श्री नरेन्द्र मोदी श्वः वीडियो कॉन्फरेंस इति दृश्य सम्मेलन द्वारा विभिन्नेषु सर्वकारीय विभागेषु संस्थासु च नवनियुक्तानां युवानां कृते 150,000+ नियुक्तिपत्राणां वितरणं करिष्यति। सः अस्मिन् अवसरे नवनियुक्तान् युवजनान् अपि संबोधयिष्यति। 16तम उद्योग सम्मेलनं देशे 47 स्थानेषु भविष्यति। केंद्र सर्वकारस्य मंत्रालयेषु विभिन्न विभागेषु च एताः नियुक्तयः भवन्ति। श्रावणमासस्य कावड़यात्रा अद्य समारब्धा। प्रातःकालादारभ्य बहुसंख्याकाः तीर्थयात्रिकाः गंगाजलं समानेतुं उत्तराखण्डस्य हरिद्वारं ऋषिकेशं नीलकंठ महादेवं गंगोत्री धाम च प्रविशन्तः सन्ति। कावड़यात्रायां अभिलक्ष्य सर्वकारेण प्रशासनेन च यात्रायाः सर्वाः पूर्वसिद्धताः कृताः सन्ति। अद्य इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मंत्रालयः नवदिल्ली नगरे ट्रांसिशनिंग टू क्वांटम साइबर रेडिनेस इत्यनेन शीर्षकेण श्वेतपत्रं समारब्धम्। श्वेतपत्रमिदं विभिन्न क्षेत्राणां संस्थानां कृते स्वस्य क्वांटम सुरक्षित प्रवासमारब्धुं क्वांटम सज्जतायै च बहुमूल्यं मार्गदर्शकं करोति। जम्मू कश्मीरे राज्य अन्वेषण संभागेन आतंकवाद वित्तपोषण अन्वेषणस्य भागरूपेण जम्मू डोडा हंडवाड़ा इत्यादिषु त्रिषु स्थानेषु अन्वेषणाभियानं कृतम्। क्रिप्टो मुद्रायाः माध्यमेन सीमापारं वित्तपोषणं कृत्वा आतंकवादस्य प्रेरणायाः अथ शान्तेः अस्थिरता प्रयत्नानां च षड्यंत्रं लक्ष्यीकृत्य अन्वेषणमिदं कृतं वर्तते। ह्यः एकस्मिन् दिने एव 5,000+ शरणार्थी परिवाराः स्वदेशम् अफगानिस्तानं प्रति प्रत्यागतवन्तः। प्रत्यागतेषु अधिकांशाः परिवाराः ईरान देशे निवसन्तः आसन्। शरणार्थीनां विशालपरिमाणेन पुनर्गमनं निरन्तरं जायमानं वर्तते। तेहरानेन ईरान देशे अवैधरूपेण निवसन्तः अफगानिस्तान देशस्य नागरिकाः देशत्यागार्थम् आग्रहिताः। अद्यतन वक्तव्ये अफगानिस्तानस्य अंतरिम प्रधानमंत्री कार्यालयेन विगत चतुर्दशकेषु अफगानिस्तानस्य शरणार्थिनां आतिथ्यार्थं ईरान देशाय कृतज्ञता समर्पिता। एवमेव शरणार्थीनाम् अधिकारस्य निरन्तरं सम्मानं कर्तुम् आह्वानमपि कृतम्। अवधेयं वर्तते यत् विगतमासे 250,000+ अफगानिस्तान शरणार्थिनः ईरान देशात् स्वदेशं प्रत्यागताः सन्ति। गुजरातस्य स्वास्थ्यमंत्री ऋषिकेश पटेलः अवदत् यत् सर्वकारेण वडोदरा सेतु घटनायाः उच्चस्तरीय अन्वेषणं कृतं वर्तते। अन्वेषण समित्याः प्रारंभिक प्रतिवेदनानुसारं पथिकानां आर्टिकुलेशन क्रश इत्यस्य च कारणेन मुजपुरा गंभीरा सेतुः पतितः। अद्य श्री पटेलेन वडोदरा मण्डलस्य पादरा तालुकायाः मुजपुरे गंभीर नद्याः सेतु घटनास्थलस्य भ्रमणकाले एतदुक्तम्। समितिः 30 दिवसाभ्यन्तरे विस्तृतं प्रतिवेदनं प्रस्तौति इत्यपि सः उल्लेखितवान्। भारतस्य ऋतुविज्ञानविभागेन अद्य पूर्वीय राजस्थानस्य उत्तरप्रदेशस्य मध्यप्रदेशस्य च पृथक् पृथक् स्थानेषु प्रचण्डवृष्टेः पूर्वानुमानं प्रकटितम्। विभागस्य अनुसारम् अद्य अरुणाचलप्रदेशे छत्तीसगढे हरियाणायां चण्डीगढे हिमाचलप्रदेशे झारखण्डे पंजाबराज्ये उत्तराखण्डे विदर्भे च प्रचण्डवृष्टिः भवितुं शक्नोति। ऋतुविभागेन आगामिषु 7 दिवसेषु देशस्य पूर्वोत्तर पश्चिम पूर्व मध्यभागेषु च लघुतः मध्यमपर्यन्तं वर्षायाः स्थितेः पूर्वानुमानं प्रकटितमस्ति। टेस्ट क्रिकेट क्रीडायां एंडरसन तेंडुलकर ट्रॉफीति क्रीडास्पर्धायाः तृतीया टेस्ट क्रीडा भारत इंग्लैंडयोः मध्ये लंडनस्य लॉर्ड्स क्रीडांगणे प्रचलति। अन्तिमसूचनापर्यन्तं इंग्लैंड दलेन द्वितीय दिवसस्य भोजनावकाशं यावत् 7 क्रीडकानां हानौ 53,000+ धावनांकाः समार्जिताः इति वार्ताः।